Book 2
85
85
Câu hỏi quá khứ phần 1
Prashn Bhutkal 1
Prashn Bhutkal 1
Bạn đã uống bao nhiêu rồi?
Aapne kitni pi hai?
Aapne kitni pi hai?
Bạn đã làm việc bao nhiêu rồi?
Aapne kitna kaam kiya?
Aapne kitna kaam kiya?
Bạn đã viết bao nhiêu rồi?
Aapne kitna likha?
आपने कितना लिखा?
Bạn đã ngủ như thế nào?
आप सोए कैसे?
आप सोए कैसे?
Bạn đã đỗ kỳ thi như thế nào?
आपने परीक्षा कैसे पास की?
आपने परीक्षा कैसे पास की?
Bạn đã tìm đường như thế nào?
आपको रास्ता कैसे मिला?
आपको रास्ता कैसे मिला?
Bạn đã nói với ai?
आपने किसके साथ बात की?
आपने किसके साथ बात की?
Bạn đã hẹn với ai?
आपकी किसके साथ मुलाकात हुई?
आपकी किसके साथ मुलाकात हुई?
Bạn đã tổ chức sinh nhật với ai?
आपने किसके साथ जन्मदिन मनाया?
आपने किसके साथ जन्मदिन मनाया?
Bạn đã ở đâu?
आप कहाँ थे?
आप कहाँ थे?
Bạn đã sống ở đâu?
आप कहाँ रहते थे?
आप कहाँ रहते थे?
Bạn đã làm việc ở đâu?
आपने कहाँ काम किया है?
आपने कहाँ काम किया है?
Bạn đã khuyên cái gì?
आपने क्या सलाह दी है?
आपने क्या सलाह दी है?
Bạn đã ăn gì?
आपने क्या खाया है?
आपने क्या खाया है?
Bạn đã được biết những gì?
आपने क्या अनुभव किया?
आपने क्या अनुभव किया?
Bạn đã đi xe nhanh như thế nào?
आपने कितनी तेज गाड़ी चलाई?
आपने कितनी तेज गाड़ी चलाई?
Bạn đã bay bao lâu?
आपने कितने समय तक उड़ान की है?
आपने कितने समय तक उड़ान की है?
Bạn đã nhảy cao bao nhiêu?
आपने कितनी ऊंचाई तक कूदा है?
आपने कितनी ऊंचाई तक कूदा है?
Hãy vào trang này, bạn sẽ tìm thấy quyển sách và những bài đọc kèm theo. Tôi nhắc lại www.book2.ge